सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। अधुना परिचितं सुभाषितं श्रूयते, भगिनी एकवारं सुभाषितं स्मारयतु।
ॐ गुरुभ्यो नमः। विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम्। विद्या भोगकरी यशःसुखकरी, विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने, विद्या परा देवता। विद्या राजसु पूज्यते न तु धनम्, विद्या विहीनः पशुः।
धन्यवादाः। अस्माकं प्रवर्तमानः विषयः अस्ति उपसर्गाः, तस्य एव अनुवर्तनं भवति अद्यतनवर्गे अपि। उपसर्गाणां प्रसङ्गे बहु किमपि ज्ञातव्यमस्ति। अद्य उपसर्गाणां प्रसङ्गे ल्यबन्तरूपाणां चिन्तनं कर्तुमिच्छामि। इत्युक्ते ल्यबन्तरूपाणि ज्ञातुं किञ्चित् चर्चां कुर्मः। अतः अद्य चतुर्नवतितमं पुटम् अवलोकयन्तु। चतुर्नवतिः इति पदस्य विग्रहवाक्यं, चतुरधिका नवतिः, मध्यमपदलोपि कर्मधारयसमासः अस्ति तस्मिन् पदे। चतुर्नवतिः इति स्त्रीलिङ्गशब्दः, नवतिः इति स्त्रीलिङ्गशब्दः, मतिशब्दवत् रूपाणि भवन्ति। तस्मात् पूर्वं त्रिनवतिः अस्ति खलु, त्रिनवतिः, त्रयोनवतिः, तत्र रूपद्वयं सिध्यति। किन्तु चतुर्नवतिः इत्यत्र एकमेव रूपमस्ति, चतुर्नवतिः। पूर्वस्मिन् पुटे अलं, बहिस्, अन्तर् इत्यादयः उपसर्गतुल्याः इति लिखितमस्ति। उपसर्गतुल्याः इत्युक्ते उपसर्गसदृशाः, उपसर्गसमानाः। अलं, बहिस्, अन्तर् इत्यादीनि पदानि उपसर्गतुल्यानि। अलङ्करोति, बहिष्करोति, अन्तर्भवति इति त्रीणि पदानि दत्तानि। तेषां प्रसङ्गे ल्यबन्तरूपाणि किं भवन्ति? अलङ्करोति इत्यस्य रूपम् अलङ्कृत्य, बहिष्करोति ल्यबन्तरूपं बहिष्कृत्य, अन्तर्भवति इत्यत्र अन्तर्भूय इति रूपं भवति। वयं सर्वे श्रुतवन्तः खलु, सम्भूय, अन्तर्भूय इति ल्यबन्तपदद्वयम्। अन्तर्, बहिस्, अलम् इत्यादयः शब्दाः स्वरादिगणीयशब्दाः। स्वरादिगणः नाम्ना एकः गणः अस्ति। स्वरादिगणः आकृतिगणः इति वक्तव्यमस्ति। आकृतिगणः इत्युक्ते तस्मिन् गणे पूर्वं केचन शब्दाः सन्ति, किन्तु शिष्टप्रयोगम् अनुसृत्य अन्येषां पदानां योजनमपि तस्मिन् गणे भवितुमर्हति। नूतनानां पदानाम् आयोजनमपि तस्मिन् गणे शिष्टप्रयोगम् आधारीकृत्य भवितुमर्हति। तदर्थमेव आकृतिगणः। स्वरादिगणीयशब्दाः अपि च द्वाविंशतिप्रादयः, एते सर्वे निपातसंज्ञकाः भवन्ति। पश्चात् स्वरादिनिपातमव्ययं सूत्रेण प्रादयः अपि च स्वरादिगणीयसर्वे शब्दाः अव्ययपदानि भवन्ति। इत्युक्ते स्वरादिनिपातमव्ययम् इति सूत्रेण एते सर्वे शब्दाः अव्ययसंज्ञां प्राप्नुवन्ति। इमानि सर्वाणि अव्ययपदानि मूलरूपेण प्रातिपदिकानि, इत्युक्ते मूलतः तेषां रूपं प्रातिपदिकम्। प्रातिपदिकमस्ति चेत् किं कुर्मः? प्रातिपदिकमस्ति चेत् सुप्रत्ययानां योजनं भवति तेषाम् अन्ते। तदर्थमेव सुबन्तं, सुप्तिङन्तं पदम् इति कथनेन, यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् पदं सुबन्तम्। अव्ययानि सर्वाणि प्रातिपदिकानि, प्रातिपदिकानि इति कृत्वा सर्वेषां प्रातिपदिकानाम् अन्ते सुप्रत्ययानां विधानं भवति खलु। तदर्थम् अव्ययपदानाम् अन्ते अपि सुप्रत्ययानां योजनं भवति आदौ, किन्तु अव्ययात् आप्सुपः इति सूत्रेण तेषाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति, लुक् भवति, सुप्रत्ययस्य लुक् भवति इति कृत्वा अव्ययपदानाम् अन्ते स्थितस्य सुप्रत्ययस्य दर्शनं न भवति। यद्यपि सुप्रत्ययः तत्र न दृश्यते, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययस्य लक्षणं तिष्ठति, सुप्रत्ययस्य लक्षणं तिष्ठति। तदर्थं सुप्तिङन्तं पदम् इति सूत्रेण अस्य अव्ययपदस्य अन्ते सुप्रत्ययः अस्ति इति कारणतः अव्ययानि अपि सुबन्तानि एव. अव्ययपदानां पदसंज्ञा अस्ति इत्युक्ते आहत्य उपसर्गाणां पदसंज्ञा अस्ति, उपसर्गतुल्यानाम् अपि पदसंज्ञा अस्ति इति एकः विषयः. अपि च च इति पदं वयं जानीमः खलु, चादिगणीयप्रथमसदस्यः च अस्ति, तत्रापि च इति अपि अव्ययमेव, किन्तु तत्र स्वौजसमौट् इति एकं दीर्घं सूत्रमस्ति खलु, तेन दीर्घसूत्रेण सुप्रत्ययः विधीयते आदौ, पश्चात् अव्ययात् आप्सुपः इति सूत्रेण च इति पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययलक्षणं तिष्ठति इति कारणतः च इति पदम् एव, इत्युक्ते अव्ययपदं. ल्यबन्तपदानि, ल्यबन्तपदानि अपि अव्ययानि, कुरुदन्त अव्ययानि इति वदामः. आहत्य उपसर्गाणां पदसंज्ञा अस्ति सुप्तिङ्गन्तं पदम् इति सूत्रेण. यद्यपि तत्र सुप्रत्ययः न दृश्यते, तथापि प्रत्ययस्य लक्षणं तत्र तिष्ठति इति कारणतः तानि अपि पदानि एव. ग इत्यस्मिन् भागे स्वीकरोति, उष्णीकरोति, सज्जीकरोति इत्यादीनि पदानि दत्तानि. तादृशानि पदानि, अन्यानि पदानि गते वर्गे अहम् उक्तवती. भवन्तः सर्वे श्रुतवन्तः खलु, एकं सुभाषितमस्ति, केयूराणि न भूषयन्ति पुरुषं, भर्तृहरेः सुभाषितमस्ति. तस्मिन् सुभाषिते भर्तृहरिः किं वदति, वाग्भूषणमेव भूषणम्, अन्यानि भूषणानि सर्वाणि नश्यन्ति, संस्कृतावाणी एका एव पुरुषं समलङ्करोति. संस्कृतावाणी एका एव पुरुषं समलङ्करोति. स्नानादिकं, कर्णभूषणानि, अलङ्कृता मूर्धजा इत्यादयः बहिः सज्जीकुर्वन्ति मनुष्यं, किन्तु संस्कृतावाणी एका एव पुरुषं समलङ्करोति इति भर्तृहरे उक्तवान्. तस्मिन् प्रसङ्गे सज्जीकरोति इति पदं वक्तुं शक्नुमः. सज्जीकरोति इत्यत्र ल्यबन्तपदं किं भवति, सज्जीकृत्य. स्वीकरोति इत्यत्र स्वीकृत्य. उष्णीकरोति तत्र उष्णीकृत्य इत्यादीनि ल्यबन्तपदानि भवन्ति. स्वी, सज्जी, उष्णी इत्यादयः शब्दाः उपसर्गतुल्याः इति कृत्वा उष्णीकृत्य इति ल्यबन्तपदं भवति. उष्णीकृत्य इति पदं साधयितुम् उष्णी इति उपसर्गतुल्यं पदमस्ति, क्रू इति धातुः अस्ति. तत्र कीदृशं कार्यं भवति इति गते वर्गे प्रश्नः आगतः, उत्तरमपि प्रेषितवती, भवन्तः सर्वे उत्तरं दृष्टवन्तः इति मन्ये. उष्णीकृत्य, उपकृत्य, अपकृत्य, सज्जीकृत्य इत्यादिषु विशिष्टसूत्रेण तुक् आगमः भवति. तुक् आगमः इत्युक्ते तकारः आयति. ह्रस्वस्य पितिकृति तुक् इति सूत्रेण तुक् आगमः भवति. पितिकृति तुक् इति उक्तवती. पिति इत्युक्ते पित् प्रत्ययः. अत्र पित् प्रत्ययः कः, ल्यप्. ल्यप् इति पित् प्रत्ययः. ल्यप् इत्यस्मिन् पकारः इति संज्ञकः अस्ति खलु, पित्. पिति कृति, कृति इति उक्तमस्ति. इत्युक्ते ल्यप् प्रत्ययः कृत् प्रत्ययः अपि. ल्यप् प्रत्ययः पित् प्रत्ययः अपि च कृत् प्रत्ययः. तदर्थं तुक् आगमः भवति ह्रस्वस्य. ह्रस्वस्य इत्युक्ते क्रू, ह्रु इत्यत्र ह्रस्व अङ्गमस्ति इति कृत्वा ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भूत्वा उपकृत्य. तत्र क्रू धातुः अस्ति, ल्यप् इत्यस्मात् या आगतः, तकारः आगतः, तुक् आगमः. वयं सर्वे पठितवन्तः खलु व्याकरणवर्गे, आदेशः एकं कार्यम्, आगमः एकं कार्यं, लोपः अन्यत् कार्यम्. अत्र आगमः, तुक् आगमः भवति. मित्रवत् आगमः, शत्रुवत् आदेशः खलु, तत्र तुक् आगमः भूत्वा कृत्य इति रूपं भवति. बहिष्टात् तकारः आगतः. क्त्वान्तपदानां प्रसङ्गे समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वा प्रत्ययस्य विधानं भवति, किन्तु ल्यप् प्रत्ययस्य कृते एकम् अन्यत् सूत्रमस्ति. समासे अनै पूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप् प्रत्ययस्य विधानं भवति. उपकृत्य, परिष्कृत्य, अलङ्कृत्य, स्वीकृत्य, उष्णीकृत्य, सज्जीकृत्य इत्यादीनि ल्यबन्तपदानि साधयितुं शक्नुमः. अग्रिमभागे घ इत्यस्मिन् भागे उपसर्गनियमाः इति लिखितमस्ति, तस्मात् आरभ्य अद्य वयं पठामः. तत्र नियमः इति पदमस्ति खलु, नि उपसर्गपूर्वकः यम् धातुतः अप् इति एकः प्रत्ययः अस्ति, तेन निर्मितं पदम्। नि उपसर्गपूर्वकः यम् धातुः उपरमे इत्यस्मिन् अर्थे धातुः अस्ति, यम् धातुतः अप्रत्ययस्य योजनेन नियमः इति रूपं सिद्ध्यति। भवन्तः सर्वे श्रुतवन्तः एव अन्यानि ईदृशानि पदानि, सम् उपसर्गस्य योजनेन संयमः, नि उपसर्गस्य योजनेन नियमः, उप उपसर्गस्य योजनेन उपयमः, उद्यमः। उत् उपसर्गपूर्वकः यम् धातोः रूपमेव उद्यमः, किन्तु तत्र सन्धिकार्यं भवति। उत् उपसर्गपूर्वकः यमः उद्यमः। आहत्य उपसर्गनियमाः के इति अस्माभिः ज्ञातव्यं। तदर्थं तं भागं पश्यन्तु, इदानीम् एकवारम् अवलोकयामः। भूमा भगिनी एकवारं पश्यतु।
उपसर्गनियमाः, उपसर्गः धातोः पूर्वं भवति, भवती एव पूर्वमेव उक्तवती न, उपसर्गः धातोः पूर्वमेव भवति, न तु परं, धातोः परं नास्ति। उपसर्ग सततं धातोः पूर्वमेव भवति, यथा आ योगः गच्छति आगच्छति, गच्छति परं नास्ति आ उपसर्गः, उपसर्गः पूर्वमेव आगच्छति। उपसर्गेण कदाचित्
भगिनी अत्र अर्धपोषणं भवति वा परिवर्तनं भवति वा?
आगच्छति परिवर्तनं भवति, गच्छति गच्छति गोस्, आगच्छति कंस, परिवर्तनं भवति, विपरीतार्थः एव।
उत्तमम्। यदा उपसर्गः अस्ति तदा ल्यबन्त् रूपं सिद्ध्यति, ल्यबन्त् रूपं वक्तुमिच्छति वा?
आगन्तुम्, आगत्य, आगत्य लबन्तपदम्।
तत्र गम् इति धातुः अनुनासिकान्तधातुः, अनुनासिकान्तधातुः अस्ति इति कारणतः तत्र रूपद्वयं रूपद्वयं सिद्ध्यति, आगम्य एकं रूपम्, आगत्य अन्यत् रूपम् अस्ति। इत्युक्ते अनुनासिकलोपः भवति चेत् आगत्य इति रूपं भवति, अनुनासिकलोपः विकल्पेन भवति इति कृत्वा आगम्य इति एकं रूपम् अस्ति। आहत्य अत्र विकल्पेन रूपद्वयं सिद्ध्यति, आगम्य आगत्य। अग्रे सरतु।
उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते, उपसर्गं योजनेन, उपसर्गयोजनेन कदाचित् कस्यचित् समये धातोः अर्थं परिवर्तनं भवति, स्मरति विस्मरति, गच्छति आगच्छति, पद्यते प्रपद्यते, अर्थं विस उपसर्ग सहितपदं विस्मरति, विपरीतार्थः एव, स्मरति अर्थपरिवर्तनं भवति, विस्मरति विस्मरति स्मरति विस्मरति विपरीतार्थः एव।
अत्र वि इति उपसर्गस्य अर्थः विना,
विना
वि इति उपसर्गस्य अर्थद्वयम् अस्ति, कुत्रचित् विशेषेण इति वक्तव्यं भवति, अत्र तु विना,
विना विना स्मृति, गच्छति आगच्छति, अत्र अपि आ उपसर्गेण परिवर्तनं भवति, अर्थः परिवर्तनं भवति, पद्यते प्रपद्यते, प्रा उपसर्ग योजनेन अर्थं परिवर्तनं भवति।
उत्तमम्। उपसर्गेण तत्र णत्वम् अस्ति खलु, किमर्थम्
उपसर्गेण रेफः अस्ति खलु, रेफः निमित्तमस्ति।
अस्मिन् वाक्ये कर्मपदमस्ति वा?
इदं परिवर्तते, उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते, न धातोः अर्थः, अर्थः परिवर्तते, प्रथमाविभक्ति कर्तृपदमेव।
उत्तमम्।
वृत्तधातु सकर्मक न अकर्मक।
अत्र वाक्यं तु अर्थः परिवर्तते. यद्यपि वाक्यं बहु दीर्घमस्ति तथापि अत्र लघुवाक्यं पश्यामश्चेत् अर्थः परिवर्तते इति लघुवाक्यं. कदा परिवर्तते?
उपसर्गेण योजनेन.
उपसर्गस्य योजनेन तत्र योजनम् इति ल्युडन्तपदमस्ति. योजनम् इति ल्युडन्तपदमस्ति इति कृत्वा तस्मात् पूर्वं षष्टिविभक्तेः प्रयोगः भवति. उपसर्गस्य योजनेन अथवा उपसर्गेण. परिवर्तते इति पदमस्ति खलु, तत्रापि परि इति उपसर्गः अस्ति इति कारणतः परिवर्त्य. परिवर्त्य इति कीदृशं पदम्?
परिवर्त्य भिन्न भिन्न परिवर्त्य चेञ्जिङ्ग्.
परिवर्त्य इति ल्यबन्तपदमस्ति.
परिवर्त्य
इदमेव वाक्यं किञ्चित् भिन्नरीत्या वक्तुमिच्छामश्चेत् कथं वक्तव्यम्? उपसर्गेण कदाचित् धातोः अर्थं परिवर्त्य इति कथनेन ल्यबन्तपदमस्ति इति कारणतः तत्र कर्मपदं स्वीकरोति इति कृत्वा अर्थं परिवर्त्य लिखतु भवती एव. इदमेव वाक्यम् अर्थं परिवर्त्य लिखतु इति वक्तुं शक्यते. परिवर्त्य इति ल्यबन्तपदमस्ति. तत्र स्मरति विस्मरति. विस्मरति इत्यत्र ल्यबन्तपदं जानाति वा?
विस्मृत्य.
उत्तमम्. आगच्छति.
आगत्य आगम्य.
उत्तमम्. प्रपद्यते.
प्रपद्यते आगत्य प्रपद्य.
प्रपद्य उत्तमं तदेव. प्रपद्य वदतु.
कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति. अर्थं बलम् अर्थस्य विशेष
इतोपि अधिकं भवति.
तथा शोभते सुशोभते. शोभते सुशोभते अधिकं प्रकाशं दीयते.
अर्थपोषणं भवति.
अर्थपोषणमेव. लिखति विलिखति विशेष अर्थं भवति. पोषणमेव भवति. आरभते प्रारभते. सम्यक् रीत्या आरम्भं करोति प्रारभते. चरति सञ्चरति. सम्यक् रीत्या चरति.
सम्यक् एव तदेव. सम् इत्युक्ते सम्यक् इत्येव. उत्तमं सम्पूर्णं. अत्र पश्यतु धातोः अर्थस्य पोषणं भवति. अर्थस्य पोषणं पोषणम् इति ल्युडन्तपदमस्ति. तदर्थमेव तस्मात् पूर्वं षष्ठीविभक्ते प्रयोगः भवति. कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति. अत्र अर्थस्य पोषणं तत्र समस्तपदं कृत्वा लिखामश्चेत् अर्थपोषणं. शुशोभते इति सु उपसर्गपूर्वकः शोभते इति रूपं दत्तमस्ति. तत्र वदतु. ल्यबन्तपदं.
ल्यबन्तपदं
तत्र किञ्चित् काठिन्यमस्ति. तत्र सु इति उपसर्गः अस्ति. शुभ् धातुः अस्ति. ल्यप् इत्यस्मात् या आगतः. सुशुभ्य. विलिखति विलिखति इत्यत्र
विलिख्य एव पूर्वमेव उक्तवती.
प्रारभते इति पदमस्ति. अत्र किम् अभवत् प्रा उपसर्गस्य योजनेन? अत्र उपसर्गद्वयमस्ति खलु.
दीर्घ अस्ति.
अत्र सन्धिकार्यम् अभवत्. सन्धेः नाम
सवर्णदीर्घः.
अत्र प्रायोगः आयोगः रभते प्रारभते इति रूपम् अस्ति. अत्र ल्यबन्तरूपं किं भवितुमर्हति?
प्रारभ्य.
रभ् धातोः पूर्वं केवलम् आ उपसर्गस्य योजनेन आरभ्य. किन्तु अत्र प्रारभ्य. रभ् धातोः प्रसङ्गे केचन ज्ञातव्याः अंशाः सन्ति. रभ् धातोः प्रसङ्गे एकं सूत्रं, विशिष्टं सूत्रं सर्वदा स्मर्तव्यं. रभे रषभ्लिटोः इति सूत्रमस्ति. रभे रषभ्लिटोः. रभ् धातोः प्रसङ्गे शप् प्रत्ययपरे आरभते इति रूपं सिद्ध्यति. किन्तु अन्येषु रूपेषु, अन्येषु रूपेषु इत्युक्ते आरम्भः आरम्भणम् इत्यादिषु पदेषु विशेषतया अस्य धातोः प्रसङ्गे रभे रषभ्लिटोः इति सूत्रेण नुमागमः भवति इति कृत्वा आरम्भः आरम्भणम् इत्यादीनि पदानि सिद्ध्यन्ति, किन्तु लट्लकाररूपम् आरभते तत्र नुमागमः न भवति. तदेव सूत्रं वदति रभे अशप् अलिटोः इति. अशप् इत्युक्ते शप् प्रत्ययपरे नास्ति इति अर्थः. आरम्भः प्रारम्भः इत्यादीनि पदानि वयं जानीमः. चरति सञ्चरति, सञ्चरति वदतु.
सञ्चरति अनुनासिकसन्धिः न, अनुस्वरम् अनुस्वरम् आगच्छति, चकारस्य अनुस्नासिक अनुस्वर.
सम् उपसर्गपूर्वकः चर् धातोः रूपमेव सञ्चरति. अत्र ल्यबन्तरूपमस्ति सञ्चर्य. आ उपसर्गः अस्ति चेत् आचर्य. सम् उपसर्गः अस्ति इति कारणतः सञ्चर्य, आ अस्ति चेत् आचर्य. इत्युक्ते गुरुः सदा आचर्य शिष्यं बोधयति इति वक्तुं शक्यते. आचर्य सञ्चर्य अत्र चर् धातोः रूपाणि. चर् धातुतः सम् उपसर्गः अस्ति, धातोः पूर्वं सम् उपसर्गः अस्ति चेत् सञ्चरति, आ अस्ति चेत् आचरति. वदतु.
जायते सञ्जायते, अरे सञ्जायते, जा जनि जनी धातु वा, जनी धातु,
जनी प्रादुर्भावे, तत्र सम् उपसर्गपूर्वकः जन् धातोः रूपमेव जायते. पूर्वम् एकं पदमस्ति प्रपद्यते अस्ति, तत्र पद्यते अपि दिवादिगणीयधातुः, या इति श्रूयते दिवादिगणीयधातुषु. पद्याते जायते, अत्र विशिष्टसूत्रेण जन् धातोः प्रसङ्गे जा आदेशः भवति इति कृत्वा जायते इति रूपं सिद्ध्यति. अत्र तु सञ्जायते उद्भवति इति अर्थः. सञ्जायते इत्यत्र ल्यबन्तरूपं रूपद्वयं सिद्ध्यति. तत्रापि विकल्पेन रूपद्वयमस्ति, प्रजन्य इति एकं रूपं, प्रजाय इति अन्यत् रूपं. तत्र विकल्पेन रूपद्वयमस्ति. प्रजन्य इति कथनेन प्र उपसर्गपूर्वकः जन् धातुतः ल्यप् योजनेन तत्र केवलं वर्णमेलनमेव भवति. संयोगः जन् योगः ल्यप् इत्यस्मात् या आगतः इति कृत्वा संजन्य. दिवादिगणे श्यन् इति विकरणप्रत्ययः अस्ति इति कारणतः जायते इति रूपं सिद्ध्यति. किन्तु ल्यबन्तपदस्य प्रसङ्गे वदन्ती अस्मि, ल्यबन्तरूपं संयोगः जन् योगः ल्यप् इत्यस्मात् या आगतः, तदर्थं संजन्य इति एकं रूपमस्ति, सञ्जाय अन्यत् रूपमस्ति. तत्र विकल्पेन रूपद्वयं सिद्ध्यति विशिष्टसूत्रेण. जायते अपि च प्रपद्यते, एतत् पदद्वयं दिवादिगणे अस्ति, इत्युक्ते दिवादिगणीयधातुद्वयम् इदं. सञ्जायते इति पदं परसवर्णादेशं कृत्वा लिखितमस्ति, परसवर्णादेशं कृत्वा लेखनीयम्. अत्र वा पदान्तस्य इति सूत्रेण सञ्जायते इत्युक्ते अनुस्वारसहितं रूपम् अपि च परसवर्णयुक्तं रूपमपि साधु एव. किमर्थम् इत्युक्ते वा पदान्तस्य सूत्रं किं वदति, तत्र पदान्ते स्थितस्य अनुस्वारस्य यै वर्णे परे विकल्पेन परसवर्णादेशः भवति इति वदति. तत्र विकल्पेन परसवर्णादेशः भवति, उपसर्गः अपि पदमेव. तदर्थं पदान्ते स्थितस्य अनुस्वारस्य परसवर्णादेशः विकल्पेन भवति इति कृत्वा रूपद्वयम् अस्ति इति मम चिन्तनम्. साधु भगिनी साधु उक्तवती. अग्रे विमला भगिनी भवती वदतु.
कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति. उपसर्गद्वयम् अस्ति इति अस्य अर्थः. यथा प्रति आगच्छति, प्रत्यागच्छति. प्रत्यागत्य इति ल्यबन्त्यरूपं या तु प्रत्यागम्य इति. भगिनि
एकवारं सूचनां पुनः पठतु.
कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति.
द्वित्राः इति लिखितमस्ति, तस्य अर्थः कः?
द्वयः, द्वयं, द्वे उपसर्गौ आयातः इति.
किञ्चित् वक्तुमिच्छामि. तत्र द्वित्राः इति पदमस्ति, द्वित्राः उपसर्गाः. तत्र द्वित्राः इति उपसर्गाः इति पदस्य विशेषणं भवति अस्मिन् वाक्ये. द्वित्राः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासयुक्तं पदं सर्वदा अन्यपदस्य विशेषणं भवति. अन्यपदार्थप्रधानः बहुव्रीहिः इति वाक्यमस्ति. द्वित्राः उपसर्गाः. द्वित्राः इति कथनेन द्वौ वा त्रयः वा इति विग्रहवाक्यं वक्तव्यं भवति. द्वौ वा त्रयः वा इति विग्रहवाक्यं द्वित्राः. टु आर् त्री इति अर्थः द्वित्राः इति कथनेन. टु आर् त्री. त्री आर् फोर् इति वक्तुमिच्छामश्चेत् त्रिचतुराः इति वक्तव्यं. त्रिचतुराः इति कथनेन त्रयः वा चत्वारः वा. त्रिचतुराः इति अपि बहुव्रीहिसमासयुक्तं पदं. तथा एव फैव् आर् सिक्स् इति वक्तुमिच्छामश्चेत् पञ्चशाः. पञ्चशाः इति कथनेन पञ्च वा षड् वा इति अर्थः. द्वित्राः, त्रिचतुराः, पञ्चशाः एतेषु पदेषु बहुव्रीहिसमासः अस्ति. किन्तु बहुव्रीहिसमासे अपि बहवः प्रभेदाः सन्ति. अस्य बहुव्रीहिसमासस्य नाम संख्या उभयपद बहुव्रीहिसमासः. सन्धिं कृत्वा वदामश्चेत् संख्योभयपद बहुव्रीहिसमासः. संख्या उभयपद बहुव्रीहिसमासः. द्वित्राः इत्यस्मिन् पदे अयं समासः अस्ति. संख्योभयपद बहुव्रीहिसमासः. कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति. इदानीं पठतु भगिनि.
प्रति आगच्छति तत्रतः किं भगिनि? प्रति उपसर्गम् आ अपि उपसर्ग उपसर्गः गच्छति घम् धातु धातुतः लटि एकवचने प्रत्यागच्छति. अपि अस्य लबन्तरूपं प्रत्यागत्य अपि च प्रत्यागम्य इति अस्तु किं भगिनि? रूपद्वयमस्ति किम्?
उत्तमम्. अत्र यथा मया पूर्वम् उक्तमस्ति गम् धातुः अनुनासिकान्तधातुः. मकारः अनुनासिकवर्णः इति कृत्वा अनुनासिकान्तधातुः अस्ति चेत् तत्र विशिष्टसूत्रेण अनुनासिकलोपः भवति. लोपः भवति चेत् प्रत्यागत्य रूपं सिद्ध्यति. लोपः विकल्पेन भवति. अन्यस्मिन् पक्षे लोपः न भवति चेत् प्रत्यागम्य इति रूपमेव सिद्ध्यति. सन्धिः नित्यः खलु. अत्र सन्धिः भवति. कीदृशसन्धिः अस्ति अत्र?
सन्धि भगिनि.
उत्तमम्.
आगच्छति केवलं वर्णमेलनं. अग्रे सम् अधि गच्छति, समधि गच्छति. अत्रापि वर्णमेलनमेव इति. लबन्तरूपमस्ति समधिगम्य अपि च समधिगत्य.
उत्तमम्. अत्रापि अर्थपरिवर्तनं भवति खलु?
गच्छति, अधिगच्छति, अधि त्रुवर्ड् सेम्. समधिगच्छति इत्युक्ते सम्यक्तया अधिगच्छति, कमिङ्ग् टुवर्ड्स् इति.
प्राप्नोति, लभते इति अर्थः अस्ति.
प्राप्नोति,
समधिगच्छति, शान्तिम् अधिगच्छति. गीतायां वाक्यमस्ति खलु अधिगच्छति इत्युक्ते प्राप्नोति. सम्पूर्ण अर्थभेदः दृश्यते. प्रत्यागच्छति तत्रापि अर्थभेदः अस्ति. सम्पूर्ण अर्थपरिवर्तनं भवति खलु?
आम् आम्. प्रति गच्छति, आगच्छति, प्रति आगच्छति.
अग्रे करोतु.
अग्रे निर् आ करोति, निराकरोति, निराकृत्य इति लबन्तरूपम्.
निराकृत्य. उत्तमम्. ईदृशानि पदानि बहूनि वयं श्रुतवन्तः खलु पूर्वं. क्रूधातोः पूर्वम् अत्र निर् इति उपसर्गः अस्ति. निर्योगः आयोगः निराकृत्य. तथा एव परिष्कृत्य, उपकृत्य, अपकृत्य, सज्जीकृत्य, उष्णीकृत्य एतत् सर्वं वयं दृष्टवन्तः. अग्रे
समुदाहरति. अस्मिन् उपसर्गत्रयमस्ति. सम् उत् आ हरति. समुदाहरति तकारस्य अकारस्य आकारस्य संयोजनेन दकारः भवति. तद् समुदाहृत्य इति ल्यबन्तरूपम्. आहृत्य, समुदाहृत्य.
उत्तमम्. अत्र जस्त्वं भवति. समुदा, उदा तत्र जस्त्वसन्धिः भवति. अत्र धातुः तु
हृधातुः, गुणं भूत्वा हरति भवति. लटि वर्तमाने एकवचने.
उत्तमं. समुदाहरति इत्यस्मिन् पदे हरति इत्यत्र गुणकार्यं भूत्वा हृहर् भवति. उरण्ड्रपरः कार्यमपि अस्ति. हृ धातोः पूर्वम् अत्र बहवः उपसर्गाः सन्ति. सम् उपसर्गः अस्ति चेत् संहृत्य, वि अस्ति चेत् विहृत्य, उत् योगः आ अस्ति चेत् उदाहृत्य. अत्र समुदाहृत्य इति लिखितमस्ति. सम् उत् आ उपसर्गत्रयं दत्तमस्ति खलु.
आम्,
उदाहृत्य, समुदाहृत्य, संहृत्य, विहृत्य. अत्रापि ह्रस्वस्य पिति कृति तुक् सूत्रेण तकारः आयाति इति कृत्वा हृयोगः तकारः योगः ल्यप् इत्यस्मात् या आगतः तेन हृत्य इति रूपं सिद्ध्यति. तत्र तुक् आगमः भवति इति कृत्वा हृत्य. कृ अस्ति चेत् कृत्य, हृ अस्ति चेत् हृत्य, भ्रु अस्ति चेत् भृत्य. धातुः ह्रस्वरुकारान्तधातुः अस्ति इति कृत्वा अग्रे वदतु व्यवस्थापयति.
वि अवस्थापयति, व्यवस्थापयति, व्यवस्थाप्य इति मन्ये भगिनि.
उत्तमं.
वि अव अत्रापि सन्धिः भूत्वा यण् सन्धिः भवति, पश्चात् वर्णमेलनं. व्यवस्थापय स्थापयति इत्युक्ते एकस्मिन् स्थले पदार्थं यतो स्थापनं भू व्यवस्थापयति व्यवस्थां करोति इति भगिनि.
व्यवस्थापयति इति पदं परिशीलनेन अत्र णिचरूपम् अस्ति इति अवगन्तुं शक्यते खलु.
अयति स्थापयति ष्ठा धातुतः आयाति किं
खलु. किञ्चित् ज्ञातव्यः अंशः अस्ति. ष्ठा धातुः मूर्धन्यषकारादिधातुः, तस्मात् दन्त्यसकारः आयाति. ष्ठा इत्यस्मात् स्था आयाति. स्था धातुः दीर्घ आकारान्तधातुः. वदतु.
पुगागमः भवति. स्थाप् निच् प्रत्यये परे पुगागमः भूत्वा स्थापि भवति, परन्तु ततः पश्चात् शप् आयाति. स्थापयति इति तस्य रूपं सिद्ध्यति.
उत्तमम्. अत्र सम् उपसर्गपूर्वकः स्थापि इति नूतनधातुः अस्ति चेत् अत्र संस्थाप्य, संस्थाप्य इति रूपं भवति. अत्र तु यथा भवती उक्तवती व्यवस्थाप्य इति वक्तव्यमस्ति. तत्र रूपं कथं सिद्ध्यति इत्युक्ते णिच् प्रत्ययस्य योजनेन स्थापि इति नूतनधातोः निर्माणं भवति. स्थापि तस्मात् पूर्वम् उपसर्गं योजयामः, तेन अवस्थाप्य, व्यवस्थाप्य, संस्थाप्य इत्यादिषु ल्यप् योजनेन तत्र एकं विशिष्टम् अन्यत् सूत्रमपि कार्यं करोति. णेरनिटि इति सूत्रेण, णेरनिटि इति सूत्रेण णेः लोपः भवति. इत्युक्ते इकारस्य लोपः भवति चेदेव तत्र संस्थाप्य इति रूपं सिद्ध्यति. स्थापि इत्यत्र अन्ते इकारः अस्ति, तस्य इकारस्य लोपः भवितव्यम् एव. या इति ल्यप् इत्यस्मात् आगतं तत्र, किन्तु इकारस्य लोपः भवति चेदेव तत्र स्थाप्य इति रूपं सिद्ध्यति. किन्तु संस्थापयति, व्यवस्थापयति णिच् अस्ति, किन्तु अणिजन्तं णिच् नास्ति चेत्
संस्थाप्य संतिष्ठति.
संतिष्ठति. अत्र वदतु, अत्र वि अपि च अव योजयित्वा वदतु.
व्यवतिष्ठति.
उत्तमं.
व्यवन्तरूपं किं भवति भगिनि?
अत्र तु व्यवस्थाय.
व्यवस्थाय अस्तु.
अत्र भवती श्रुतवती खलु प्रस्थाय. सः बेङ्गलूरुतः प्रस्थाय अन्यत् नगरं गतवान्. प्रस्थाय, प्रस्थाय इति ल्यबन्तरूपम् अस्ति, किन्तु तत्र णिच् नास्ति. णिच् योजयामश्चेत् प्रस्थाप्य, संस्थाप्य, प्रस्थाप्य, व्यवस्थाप्य इत्यादिषु णिच् अपि अस्ति, किन्तु अणिजन्तं णिच् नास्ति चेत् प्रस्थाय. साधु भगिनि, उत्तमरीत्या उक्तवती.
धन्यवादः भगिनि.
अहमपि अस्मि. मम नाम श्रीधरः.
वदतु महोदय, भवान् वदतु.
नेक्स्ट् वन् इस् Viparivartate. Viparivartate is, we are doing that, right? Okay. Vi iti upasargam asti. Pari iti upasargam asti.
Kim vadamaha? Upasargaha asti. Kimartham tatra karmapadam nasti?
Tatra...
किं वक्तुम् इच्छामि इत्युक्ते अत्र उपसर्गः अस्ति. उपसर्गः इति पुंलिङ्गपदम् अस्ति. अस्ति इति अकर्मकधातुः अस्ति इति कृत्वा तत्र वाक्यं कथं लेखनीयम्? उपसर्गः अस्ति. इदानीं वदतु.
धातु अस्ति वर्त् वृत् इति धातु अस्ति. तत् परिवर्त्य वर्तते इति भवति. अष्टाध्यायी तत् सूत्रं न जानामि. एतत् जानामि, इदानीं पर्यन्तम् एतदेव जानामि. ऐ एम् लर्निङ्ग्. नेक्स्ट् वीक् प्रिपेर् कृत्वा आगच्छामि.
चिन्ता मास्तु महोदय, वयं सर्वे मिलित्वा चिन्तनं कुर्वन्तः स्मः अत्र. चिन्ता मास्तु, केवलं पृष्टवती. पदमस्ति विपरिवर्तते इति अस्ति. अत्र कति उपसर्गाः सन्ति?
द्वे उपसर्गाः सन्ति. द्वे उपसर्गौ स्तः.
द्वौ उपसर्गौ स्तः. अथवा सरलरीत्या किं वक्तव्यं? सरलरीत्या उपसर्गद्वयमस्ति. उपसर्गद्वयमस्ति इति कारणतः ल्यबन्तरूपं वक्तुं शक्नुमः. अत्र ल्यबन्तरूपं किं वदामः? परि इति उपसर्गस्य योजनेन रूपं किं भवति वदतु.
परिवर्त्य इति भवति.
नि अस्ति चेत्
ल्यबन्तं नि नि वि विवर्तते विवर्त्य.
नि अस्ति चेत्
निवर्त्य.
वि योगः नि योगः वर्तते.
विनिवर्त्य विनिवर्त्य.
वि योगः परियोगः वर्तते.
विपरिवर्त्य.
उत्तमं, साधु महोदय, तदेव. निवर्त्य, परिवर्त्य, विपरिवर्त्य, विनिवर्त्य इत्यादीनि पदानि भिन्न उपसर्गाणां योजनेन निर्मितानि. अग्रे वदतु.
अग्रे प्रणिपतति. प्र इति उपसर्गमस्ति. नि अपि उपसर्गमस्ति. पतति इति क्रियापदं. पत् तिङन्तपदमस्ति. शप् इति प्रत्याहारं. तत्र शकारपकारयोः लोपं भवति, तर्हि पतति इति भवति. प्रणिपतति प्रणिपत्य ल्यबन्तरूपमस्ति. प्रणिपत्य
नी उपसर्गपूर्वकः भवति चेत् रूपं किं भवति? नि
निपतति निपत्य.
निपतति निपत्य. सम् उपसर्गस्य योजनेन
सम्पतति सम्पत्य.
अत्र प्रणिपतति इति रूपमस्ति. प्रायोगः नियोगः पतति. प्रणिपतति इत्यस्मिन् पदे मूर्धन्यणकारः अस्ति. किमर्थम्?
मूर्धन्य न जानामि भगिनि.
साधु महोदय, तदेव. अत्र गीताञ्जलि भगिनी एकवारं स्मारयतु.
नमस्ते भगिनि. आं भगिनि, तत्र रसाभ्यां नोडः इति सूत्रम् अनुवर्तते. अनुवर्त्यरूपेण पुप्पाङ् नुम्ब्य वा एपि इति सूत्रेण रेफा अस्ति, तदनन्तरं स्वरः अस्ति, तदनन्तरं नकार अस्ति चेत् नकारमूर्धन्य नकार भवति, तेन प्रणिपतति इति निष्पन्नं भवति.
रसाभ्यां नोणः इति साक्षात् अनन्तरं खलु?
अनुवृत्ति सहितसूत्रम् इति कारणेन अट्कुप्पाङ् नुम्ब्यवायेपि इति सूत्रेण. अत्र तु अट्कुप्पाङ् एव कार्यं करोति, किन्तु निमित्तं तु रसाभ्यां नोणः इति एव अस्ति इति वदामि भगिनि, क्षम्यता.
केवलं स्मारणार्थं वदन्ती अस्मि. रषाभ्यां नोणः इति साक्षात् अनन्तरम् इत्युक्ते पूर्ण इत्यस्मिन् साक्षात् अनन्तरं रेफात् अनन्तरं दन्त्यनकारः अस्ति चेत् णत्वं भवति. किन्तु अट्कुप् वाङ्नुं व्यवायेपि सूत्रे मध्ये बाधकवर्णाः सन्ति चेत् णत्वं न भवति. किन्तु केचन अन्यवर्णाः अट्कुप् आङ्ग् इत्युक्ते अट् प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः, पवर्गीयवर्णाः, आङ् उपसर्गः, एते वर्णाः मध्ये एते वर्णाः सन्ति चेदपि णत्वं भवति अट्कुप् वाङ्नुं व्यवायेपि सूत्रेण. किन्तु अत्र इतोपि अन्यः विषयः अस्ति. अत्र निमित्तं कुत्र अस्ति? उपसर्गे निमित्तमस्ति. अतः विशिष्टसूत्रेण उपसर्गादसमासे णोपदेशस्य इति सूत्रेण भवति वा इति चिन्तनीयं. किन्तु अत्र पत् धातुः णोपदेशधातुः नास्ति.
भगिनि, तत्र नि इति उपसर्गस्य णत्वं भवति किल?
नि इत्यत्र दन्त्यनकारस्य णत्वं.
तत्र हा, तत्र उपसर्गात् असमासेपि इति कार्यं करोति इति नास्ति वा? अस्तु,
नास्ति. किमर्थं चेत् णोपदेशस्य वदतु.
हा, णोपदेशस्य धातोः कृते तु णत्वं भवति एव उपसर्गात् असमासेपि इति सूत्रेण. किन्तु तत्र नि इति उपसर्गस्य णत्वं भवति, अतः तत्र पतति इत्यस्य प्रसक्तिः नास्ति.
तदेव साधु चिन्तनम्. अत्र उपसर्गादसमासे णोपदेशस्य प्रसङ्गः अत्र नास्ति. दन्तनकारः अस्ति, अपि च निमित्तं प्रा इत्यत्र अस्ति इति कारणतः. किन्तु पत् धातुः णोपदेशधातुः नास्ति खलु?
तत्र अट्कुप् वाङ्ग् तस्य सूत्रस्य प्रसक्तिः समानपदे अस्ति वा? अधुना न स्मरामि.
समानपदे एव.
हा, तत्र उपसर्ग भवति किल? समानपदं नास्ति. प्रणि प्र योगः नियोगः पतति, समानपदे नास्ति.
णत्वप्रसङ्गे इतोपि अत्र केन सूत्रेण भवति?
तदेव प्रष्टुमिच्छामि भगिनि. अहं चिन्तितवती उपसर्गाद् असमासेपि इति. तत्र असमासः तु अस्ति, पतति इति क्रियापदम्, अतः तत्र सामान्यतया समासः न भवति तिङ्प्रत्ययेषु. अहं चिन्तितवती तदेव अस्ति इति. णोपदेशस्य इति सूत्रे भवति इति कृत्वा णोपदेशस्य एव भवनीयं वा तत्र इति न स्मरामि.
प्रणश्यति, प्रणमति इत्यादिषु णोपदेशधातुः अस्ति. प्रणश्यति, तत्र णश् धातुः उपदेशावस्थायां मूर्धन्य णकारादिः, तथा एव प्रणमति, तत्रापि नमति इत्यत्र मूर्धन्य अणकारादिधातुः उपदेशावस्थायाम् अस्ति इति कारणतः तत्र उपसर्गादसमासे णोपदेशस्य कार्यमस्ति. किन्तु अत्र णोपदेशधातुः नास्ति. गीतांजलि भगिनी वदतु.
अहमपि सम्यक् तु न जानामि भगिनि. अहं करपत्रे णत्वस्य कृते चिन्तितं भगिनि.
चिन्तनीयं. समानपदे एव रषाभ्याम् इति साक्षात् भवति. अट्कुप् वाङ् इत्यत्र समानपदे इति चिन्तनीयं. केन सूत्रेण अत्र इतोपि वैशिष्ट्यमस्ति वा इति अपि चिन्तनीयमस्ति. अग्रे सरेम. अग्रिमं पदं पर्युपास्ते. महोदय वदतु.
पर्युपास्ते, परि इति उपसर्गमस्ति, उप इति उपसर्गमस्ति, आस्ते इति क्रियापदं, तत्र आत्मनेपदीरूपम् अस्ति. आस्ते इत्युक्ते टु सिट्.
उत्तमम्. उपवेशने,
उपवेशने
इत्यस्मिन् अर्थे आस् धातुः अस्ति. आस् धातोः प्रसङ्गे गीतांजलि भगिनी किञ्चित् वदतु. आस्ते इति भवती जानाति एव, अदादिगणीयधातुः.
आस्ते धातु किं वदामि अधुना? आस् धातु अगादिगणे अस्ति इत्युक्ते आसनं धारणम् इति किम् अगादि रूपाणि आस्ते, आसाते, आसते. अत्र किं वदामि भगिनि? परि, उप.
अत्र सन्धिकार्याणि कानि वदतु.
अस्तु भगिनि. परियोगः उप पर् युप इति भवति, यण् सन्धि भवति, यकार आयाति इकारस्थाने, तदनन्तरं वर्णमेलनं उप उप आस्ते अपि च प पयोगः सवर्णदीर्घसन्धि परि पर्युपास्ते इति एव.
उत्तमम्. आस् धातोः ल्युडन्तं रूपम् आसनं, किन्तु उप उपसर्गस्य योजनेन किं भवति? परियोजनेन पर्युपासनम् किन्तु पश्यतु, आसनं भिन्नम् उपासनं भिन्नं, खलु? अत्र अर्थभेदः अस्ति, अर्थभेदः अस्ति खलु. केवलम् आसनम् इति कथनेन सीट्, उपासनम् इत्युक्ते
कथं वदनीयम्?
उप इति उपसर्गस्य अर्थः कः?
उप अस्ति चेत्
समीपं समीपार्थे इति उपयोगः आसनम् उपासनम्. उपसर्गस्य योजनेन अर्थः भिद्यते. पर्युपास्ते, यथा भवती उक्तवती, आस्ते, आसाते, आसते. आसते इति बहुवचनरूपमस्ति. ल्यबन्तरूपं वक्तुमिच्छामश्चेत् वक्तुमिच्छति वा भगिनि अत्र?
प्रयत्नकरोमि. पर्युपास्य वा पर्युपास्य.
उपयोगः आस् धातुं स्वीकुर्मः चेत् उपास्य इति ल्यबन्तरूपं, किन्तु पर्युपास्य इति ल्यबन्तरूपम्. उत् उपसर्गस्य योजनेन किं भवति?
उत् योगः आस् उदासनम् उदास्य वा
उदास्य
उदास्य पर्युदास्य
पर्युदास्य इति भवति. भवन्तः सर्वे श्रुतवन्तः एव उदासीनः इति पदमस्ति. उदासीनः इति पदम् अत्र उत् उपसर्गपूर्वकः आस् धातुतः शाणिच् प्रत्ययस्य योजनेन निर्मितं पदम् आसीनः. साधारणतया वर्तमान वन्दमान तादृशानि शाणजन्तरूपाणि वयं शृणुमः, किन्तु आस् धातोः प्रसङ्गे विशिष्टसूत्रेण शाणजन्तरूपं सिद्ध्यति. तत्र आसीन इति रूपं सिद्ध्यति शाणजन्तरूपं, किन्तु उत् उपसर्गस्य योजनेन उदासीन. किन्तु पश्यन्तु, उदासीन इति कथनेन अर्धवैचित्र्यमस्ति, वैशिष्ट्यमस्ति इति अवगन्तुं शक्नुमः.
भगिनि, पर्युपास्ते इति अर्थ भेदः अस्ति वा? पर्युपास्ते इत्युक्ते
पर्युपासते अर्थः कः? वर्षिपम्.
एकनिमिषं भगिनि, भगवद्गीतायां भवती श्रद्धया परयोपयतास्ते इति पदमस्ति, तत्र मीनिङ्ग् किं?
भगिनी उक्तवती खलु वर्षिप् श्रद्धया.
ओ देट् ओ ओके ओके 12.2.
अनन्तरं दृष्ट्वा वदामि महोदय, तत्र श्लोकं न स्मरामि.
अपि च भगिनी एक प्रणिपतति अपि अत्र भेदः जायते तत्र. भगिनी प्रणिपतति इत्युक्ते
प्रा इति कथनेन प्रकृष्टेन प्रकर्षेण इतोपि अधिकं सम्यक् रीत्या उत्तमरीत्या इति वक्तुं शक्यते, किन्तु नि इत्यस्य योजनेन किं वक्तव्यं? निषेधार्थे नि उपसर्गः भवति, अथवा अधः इत्यस्मिन् अर्थे अपि नि उपसर्गस्य प्रयोगः भवति. नीचे निपतति इति कथनेन अधः पतति इति वक्तुं शक्यते. साधु भगिनि,
तत्र दृष्टवती अहम् अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वाहम्यम्. पर्युपासते सम्यक् रीत्या उपासनं करोति.
परि इति कथनेन पूर्वं शोभाभगिनी उक्तवती, दर्शनाभगिनी यं श्लोकं पठितवती तं श्लोकं वयं सर्वे जानीमः एव. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् इति परमात्मा वदति. दर्शनभगिनी भवती एव वदतु तस्य अर्थः कः.
अनन्या चिन्तयन्तु माम् इत्युक्ते कण्टिन्यूस्लि दोस् हू रिमेम्बर् मी अनन्या चिन्तयन्तु ये जनाः परिपाषते अण्ड् दोस् हू वर्षति लैक् देट् तेषां नित्याभियुक्तानाम् एव्रि डे कदन् तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं तस्य ऐ विल् टेक् द बर्डन् आफ् देयर् प्राब्लम् अण्ड् ऐ विल् टेक् केर् आफ़्
अनन्या चिन्तयन्तु मीन्स् नाट् अनन्यगतित्वं विषयेन विष्णुरेव चिन्तयामि
भगिनि. तत्र परि इत्युक्ते अर्थानि अर्थानि सन्ति
अर्थाः सन्ति
क्षम्यताम् अर्थाः सन्ति
महोदय अपि उक्तवान् उपसर्गः उपसर्गः इति पुंलिङ्गपदमस्ति उपसर्गाः सन्ति उपसर्गः अस्ति तत्र पदं पुंलिङ्गपदमस्ति. भगिनी वदतु
स्पेस् टैम् अराउण्ड् इति परिसर इति वदामः तत्र तेन अर्थेन परि उपासते इत्युक्ते निरन्तरं सर्वदा इति भवति वा इति मन्ये भगिनि. अनन्य इत्युक्ते अन्य कोऽपि मनसि न निधाय मामेव यः परि उपासते इत्युक्ते सर्वदा निरन्तरम् उपासते इति भवति वा इति मन्ये इति चिन्तयामि.
परि इति कथनेन अहं किं दृष्टवती इत्युक्ते आस्पास् चारों तरफ् इति परि इति उपसर्गस्य अर्थः अस्ति. पूर्वम् अरविन्दमहोदयः अपि उक्तवान् अस्मिन्नेव प्रसङ्गे परि उपसर्गस्य सम्पूर्ण अर्थः कः इति एकवारं चर्चायाम्.
नित्याभियुक्तानाम् अत्र आल्वेस् युनैटेड् इति भवति किं
नित्याभियुक्तानाम् विभक्तिः का.
बहुवचनं सेकेण्ड् विभक्ति
न
षष्टि
सिक्स् विभक्ति षष्टि आम्
प्रथमाविभक्त्यन्तं पदं किं तत्र
अभियुक्तः
सम्पूर्णं पदं वदतु
नित्य अभियुक्तः
सन्धिं कृत्वा वदतु
नित्याभियुक्तः
नित्याभियुक्तः इति समस्तपदमस्ति. तत्र विग्रहवाक्यं वक्तव्यं साधु महोदय. नित्याभियुक्तानां योगक्षेमम् अहं वहामि वहाम्यहं तत्र सन्धिः कः
वहामि
साधु महोदय तदेव. सुजाता भगिनी भवती वक्तुमिच्छति वा
संयोगः प्रायोगः ईक्षते सम्प्रेक्षते ईश् धातु अस्ति आत्मनेपदि पदमस्ति सम्प्रेक्ष्य लबन्तपदमस्ति
अत्र धातुः कः
ईश् धातु
न
ये
ईक्ष धातुः
ईक्ष
धातुः एव ईक्ष अस्ति आत्मनेपदिरूपमस्ति इति कृत्वा ईक्षते ईक्षते इत्युक्ते
ईक्षते दृश्यते
दृश्यते इति कर्मणि रूपं साधु एव किन्तु कर्तरि लट् वदतु
कर्तरि पश्यति
उत्तमं कर्मणि लट् दृश्यते किन्तु कर्तरि लट् पश्यति ईक्षते इति आत्मनेपदिरूपं किन्तु पश्यति इति परस्मैपदिरूपम् अस्ति ईक्षणं वीक्षणं समीक्षणं एतानि पदानि ल्युडन्तपदानि ईक्षणं प्रेक्षणं सम्प्रेक्षणं समीक्षणं इत्यादीनि ल्युडन्तपदानि अत्र ल्यबन्तपदं किम् उक्तवती
सम्प्रेक्ष्य
उत् अस्ति चेत् किं भवति
उत्प्रेक्ष्य
अग्रिमं
वियोगः अतियोगः तरति यति तरति तृ धातु अस्ति वि उपसर्ग अति अपि व्यतरति यणसन्धि भवति एवमेव भगिनि
साधु रूपं पुनः वदतु वियोगः अतियोगः तरति
यति तरति यति तरति
सन्धेः नाम
यणसन्धि एव
अत्र इकारस्य स्थाने यकारः आगतः सूत्रस्य प्रसङ्गे वदतु किञ्चित्
न जानामि भगिनि
चिन्ता मास्तु अत्र इको एणचि इति सूत्रमस्ति प्रश्नं पृच्छामि केवलं वि इति उपसर्गः अस्ति चेत् तत्र रूपं किं भवति
वितरति
अति अस्ति चेत्
अत्यरति
अतितरति
अतितरति
सम् अस्ति चेत्
संतरति
उत् अस्ति चेत्
उत्तरति
इदानीं ल्यबन्तानि वदतु वियोगः तृ धातुतः ल्यबन्तं
वितीर्य
उत्तमं वितीर्य अहं प्रेषितवती खलु तृ धातुः कीदृशः अहं वदामि तृ इति कथनेन तत्र दीर्घरूकारः अस्ति खलु क्रू इति धातोः प्रसङ्गे ह्रस्वरुकारः अस्ति किन्तु तृ इति कथनेन दीर्घरूकारः अस्ति इत्युक्ते तृ धातुः दीर्घरूकारान्तधातुः तत्र तरति इति रूपं कथं साधितं वदतु
तरति आर् भवति ऋकारस्य आर् भवति तरति भवति भवादिगणे अस्ति
उत्तमम् गुणकार्यं भवति सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा ऊरण्ड्रपरः कार्यमपि भूत्वा तरति इति लट्लकाररूपं सिद्ध्यति किन्तु ल्यबन्तरूपं वक्तुमिच्छामश्चेत् तीर्य इति भवति वितीर्य सन्तीर्य उत्तीर्य अतितीर्य व्यतितीर्य इत्यादीनि पदानि भवन्ति तीर्य इति रूपं साधयितुम् एकं विशिष्टं सूत्रं कार्यं करोति ऋतैद्धातोः इति सूत्रेण ई आदेशः भवति इति कृत्वा तीर्य इति रूपं भवति अहं करपत्रं प्रेषितवती एकवारं पुनः पश्यन्तु तत्र तीर्य इति रूपं कथं साधितम् अन्यः विषयः उक्तः अग्रिमे पुटे सूचनां पठतु
भगिनि प्रश्नः अस्ति भगिनि ईक्ष् धातुः केवलम् आत्मनेपदि एव अस्ति किल ईक्षते इति तस्य पश्यति इति दृश्यर्धातुः अन्यधातुः किल
अन्यधातुः
ईक्ष् धातोः परस्मैपदिरूपः नास्ति
ईक्षते इति अस्ति
केवलम् आत्मनेपदि
पश्यति इत्यत्र दृश् धातुः अस्ति किन्तु तत्र विशिष्टसूत्रेण धात्वादेशः भवति इति कृत्वा पश्यति इति रूपं पश्य आदेशः भवति इति कृत्वा पश्यति रूपम् अस्ति किन्तु दर्शनार्थे तस्मिन् अर्थे एव ईक्ष् धातुः अपि इति मम चिन्तनम् तत्र धातुपाठं पश्यामश्चेत् बहवः गत्यर्थकधातवः सन्ति बहवः इत्युक्ते शताधिकं धातवः गत्यर्थकधातवः सन्ति किञ्चित् अर्थभेदः वर्तते इति मम चिन्तनम् यद्यपि सर्वे धातवः गत्यर्थकाः सन्ति तथापि तत्र अर्थभेदः अस्ति तथा एव अत्रापि पश्यति अपि च ईक्षते अनयोः अर्थसाम्यम् अस्ति किञ्चित् भेदः अपि अस्ति इति सुजाता भगिनी सूचनां पठित्वा वदतु
उपसर्गकारणतः कदाचित् परस्मैपदिधातुः आत्मनेपदिरूपम् आत्मनेपदिधातुः परस्मैपदिरूपं च प्राप्नोति उपसर्गकारणेन परस्मैधातुः आत्मनेपदिधातुः भवति कदाचित् आत्मनेपदिधातुः परस्मैपदिधातुः प्राप्नोति
उत्तमं भिन्नरीत्या इदमेव वाक्यं वक्तुमिच्छामश्चेत् आत्मनेपदित्वं परस्मैपदित्वं
सम्भवति
उत्तमं प्राप्नोति प्राप्नोति इति क्रियापदमस्ति खलु तत्र परस्मैपदिरूपम् इति पदं कर्मपदमस्ति रूपम् इति पदं नपुंसकलिङ्गपदम् अस्ति चेदपि अत्र प्राप्नोति इति सकर्मकधातोः रूपम् अस्ति इति कृत्वा अत्र कर्मपदद्वयमस्ति अस्मिन् वाक्ये उदाहरणार्थम् अत्र पदानि दत्तानि पठतु
वियोगः जयति परस्मैपदि विजयते आत्मनेपदि जयति आत्मनेपदे परस्मैपदे अस्ति, आत्मनेपदे विजयते भवति।
अत्र जि धातुतः जयति इति रूपं साधितं, भवती वक्तुमिच्छति वा?
दिवादिगणे अस्ति,
दिवादिगणे अस्ति वा?
नो नो, जयति जि धातु अस्ति,
भुवादिगणीयः एव,
भुवादिगणीय। आं भगिनि, ईगन्तधातुः अस्ति, ईगन्तधातुः अस्ति चेत् जे भवति, जि जे भवति, जे योगः शप् योगः ति इत्यनेन सन्धि भूत्वा अय, जे अय भवति, जय शप्रत्ययस्य आयव तिष्ठति, जयति भवति।
साधु भगिनी, साधु उक्तवती। अत्र एचोय वायावः सन्धिकार्यं भूत्वा,
सन्धिकार्यं भूत्वा, आम्
आदौ जि जे भवति गुणकार्यं भूत्वा, जे योगः अ, तत्र एचोय वायावः सन्धिकार्येण ऐ आदेशः भवति, जै योगः आयोगः ति जयति। किन्तु अत्र विषयः कः, वि इति उपसर्गस्य योजनेन विजयते इति रूपं सिद्ध्यति। तत्र एकं विशिष्टं सूत्रमस्ति, वि पराभ्यां जेः, वि पराभ्यां जेः इति सूत्रेण जि धातोः प्रसङ्गे आत्मनेपदिप्रत्ययानां विधानं भवति। वि उपसर्गस्य योजनेन विजयते, परा इति उपसर्गस्य योजनेन पराजयते। उपसर्गद्वयम् उक्तमस्ति, वि उपसर्गः, परा उपसर्गः, द्वयोः अन्यतमः उपसर्गस्य योजनेन जि धातुतः आत्मनेपदिप्रत्ययानां विधानं भवति, तेन विजयते इति रूपं। वदतु
एकवारं सूत्रं वदतु भगिनि।
वि पराभ्यां जेः,
वि पराभ्यां जेः, धन्यवादः भगिनि।
तदेव इदानीं दर्शना भगिनी भवती वदतु, साधु भगिनी।
भगिनी, तत्र प्रणिपतति इत्यस्य सूत्रं दृष्टवती, वदामि वा?
वदतु।
हा, तत्र एकं दीर्घः सूत्रः, नेर्गद नद, एकक्षणं, नेर्गद नद पत पद घूस् मा स्यति हन्ति याति वाति द्राति प्स्याति वपति वहति शाम्यति चिनोति दोग्धि इत्येषु परतः इति। तत्र तद् एतदेव उदाहरणमपि दत्तमस्ति, पत इति परम् आगच्छति चेत् उपसर्गस्थात् निमित्तात् उत्तरस्य नी इत्येतस्य नकारस्य नकार आदेशः भवति। अत्र प्रा इति उपसर्गः रेपः अस्ति, निमित्तम् अस्ति, तदनन्तरं नी इति उपसर्गः अस्ति, प्रायोगः नी योगः पतति, पत् इति धातुः सूत्रे अस्ति, अतः तत्र एतेन सूत्रेण नी इत्यस्य णत्वं भवति, प्रणी पतति इति।
धन्यवादाः भगिनि, अहमपि पश्यन्ती अस्मि, अष्टाध्यायी डाट् काम् पश्यन्तु, भगिन्या यदुक्तमस्ति तत् साधु एव। धन्यवादाः भगिनि। अत्र चुरादिगणस्य धातुः इति पञ्चमबिन्दुः अस्ति, तत्र पत् गतौ इत्यस्मिन् अर्थे प्रणिपतति परिणिपतति, प्रणिपतति परिणिपतति इति रूपद्वयमस्ति। तत्र अनेन विशिष्टसूत्रेण अणत्वकार्यं भवति। अन्यधातवः अन्यानि रूपाणि अपि अत्र दत्तानि, एकवारं पश्यन्तु। साधु भगिनि, इदानीं दर्शना भगिनी भवती करोतु।
तर्हि प्र उपसर्गः तिष्ठति, परस्मैपदी धातु क्रियापदं यदस्ति तत् परिवर्त्य प्रतिष्ठते इति भवति, आत्मनेपदी भवति। तर्हि उपसर्गात् तत्र परिवर्तनं जायते। तथैव वि उपसर्गः क्रीणाति इति क्रियापदं विक्रीणीते इति भवति तत्र उपसर्गस्य योजनेन।
भगिनी एकं वक्तुम् इच्छामि, तिष्ठति इति रूपम् अस्ति, भवती जानाति एव स्था धातुः रूपमेव तिष्ठति, किन्तु अत्र एकं सूत्रमस्ति समवप्रविभ्यः स्थः, समवप्रविभ्यः स्थः इति सूत्रेण आत्मनेपदी प्रत्ययाः विधीयन्ते। स्था धातुतः प्र उपसर्गस्य योजनेन प्रतिष्ठते इति आत्मनेपदीरूपम्, अव इति उपसर्गस्य योजनेन अवतिष्ठते, अपि च सम् उपसर्गस्य योजनेन सन्तिष्ठते, वि उपसर्गस्य योजनेन वितिष्ठते, आहत्य एतेषां चतुर्णाम् उपसर्गाणां योजनेन आत्मनेपदित्वं स्थाधातुः प्राप्नोति। समवप्रविभ्यः स्थः इति सूत्रेण आत्मनेपदिप्रत्ययानां विधानं क्रियते। प्रतिष्ठते इत्युक्ते प्रतिष्ठापनं भवति, स्थापनं भवति। प्रतिष्ठते इति कथनेन तत्र अर्थः कः इति एकवारं परिशीलयामश्चेत्, स्थापनं तत्र भवति,
पर्मनेंट् अस्ति, शाश्वतः अस्ति इति। एकदा प्रतिष्ठापनं कुर्मः चेत् तर्हि तत् शाश्वतम् अस्ति।
उत्तमम्, शाश्वतरीत्या तत्रैव तिष्ठति, न निर्गच्छति। सम् अव प्र वि एतेषां योजनेन आत्मनेपदित्वं स्वीकरोति स्थाधातुः, अपि च आ इति उपसर्गस्य योजनेन अपि आत्मनेपदित्वं स्वीकरोति, तेन आतिष्ठते इति रूपं सिद्ध्यति। अग्रे करोतु।
वि उपसर्गः क्रीणाति इति क्रियापदं, विक्रीणीते इति भवति, परन्तु अहं सूत्रं न जानामि भगिनि।
एकवारं वदामि, तत्र परिव्यवेभ्यः क्रियः, परिव्यवेभ्यः क्रियः, क्रियः इत्युक्ते क्रीधातोः प्रसङ्गे परि उपसर्गस्य योजनेन परिक्रीणीते रूपं, वि उपसर्गस्य योजनेन विक्रीणीते रूपम्, अव इति योजनेन अवक्रीणीते। आहत्य क्रीधातोः प्रसङ्गे एतेषां त्रयाणाम् उपसर्गाणां योजनेन आत्मनेपदित्वं भवति, क्रीधातोः प्रसङ्गे एतेषां त्रयाणां योजनेन आत्मनेपदित्वं सिद्ध्यति। परिक्रीणीते, विक्रीणीते, अवक्रीणीते, अत्र उपसर्गाणां योजनेन अर्थः भिद्यते। एतावत् विक्रीणीते इत्युक्ते
सेल्स्, सेल्स् तत्र किम् अर्थ किम् आपोजिट्, आपोजिट् मीनिङ्ग् अस्ति।
अहं कुत्रचित् दृष्टवती अतः वदामि, परिक्रीणीते इत्युक्ते प्राप्नोति, लभते इति अर्थः इति दृष्टमस्ति। अवक्रीणीते इत्युक्ते भ्रष्टाचारेण धनं ददाति, अवक्रीणीते इत्युक्ते अव इति कथनेन हीनता इति अर्थः अस्ति खलु, तदर्थम् अवक्रीणीते इति भिन्नार्थः अस्ति। आहत्य सूत्रमस्ति परिव्यवेभ्यः क्रियः इति सूत्रेण आत्मनेपदित्वं सिद्ध्यति क्रीधातोः प्रसङ्गे।
सर्वदा न हीनता वदति किल, अव अवगम्यते, अवगम्यते तु पॉजिटिव् अस्ति किल,
पॉजिटिव् अस्ति। कुत्रचित् अव इति कथनेन अवगुणः, क्रीणाति इति रूपम् अस्ति, किन्तु परि उपसर्गस्य योजनेन परिक्रीणीते। अग्रे पठतु भगिनि।
अव योगः तिष्ठति, भवती उक्तवती एव सूत्रं, तर्हि अग्रे गच्छामः किं भगिनि?
अत्र
सूत्रं न लिखितं,
पूर्वमपि उक्तवती समवप्रविभ्यः स्थः इति सूत्रेण तत्र आत्मनेपदी प्रत्ययानां विधानम्, अवयोगः तिष्ठति, अवतिष्ठते, अवतिष्ठते इत्युक्ते प्रविशति इति अर्थः। अग्रिमं पदमस्ति विरमति, वदतु।
वियोगः रमते, अत्र तु यत् पदम् आत्मनेपदी अस्ति तत् परिवर्त्य परस्मैपदी भवति, वि रमते, विरमति, अत्र अपि अर्थः विद्यते। रमते इत्युक्ते टु एञ्जाय्, विरमति इत्युक्ते टु रेस्ट्, टु रिलाक्स्.
उत्तम. आ उपसर्गः अस्ति चेत्?
आ उपसर्गः अस्ति चेत् आरमति भवति किम्?
आरमति. परि अस्ति चेत्?
परि अस्ति चेत् परिरमति.
उत्तमम्. अत्र विरमति, आरमति, परिरमति इमानि पदानि परस्मैपदीरूपाणि. अत्रापि रम् धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति, व्याङ् परिभ्यो रमः, व्याङ् परिभ्यो रमः इति कथनेन वि आङ् परि, वि आङ् परिभ्यः. एतेषां त्रयाणाम् उपसर्गाणां योजनेन रम् धातुः परस्मैपदी भवति, परस्मैपदीत्वं प्राप्नोति रम् धातुः. तदर्थमेव विरमति, आरमति, परिरमति, वि आङ् परि त्रयाणां योजनेन परस्मैपदीत्वं स्वीकरोति. अन्येभ्यः उपसर्गेभ्यः रूपं तु आत्मनेपदिरूपमेव भवति. यथा अभिरमते, उप इति उपसर्गस्य योजनेन उपरमति इति परस्मैपदिरूपमेव भवति. तत्र एकम् अन्यत् सूत्रमस्ति, उपाच्य, उपाच्य इति सूत्रेण उपरमति इति अपि परस्मैपदिरूपम् एव. आहत्य भिन्न उपसर्गाणां योजनेन तत्र धातोः रूपं भिद्यते. वदतु
भगिनी, अधुना अष्टाध्याय अष्टाध्यायी.com मध्ये प्रत्येके धातोः नूतनाः विषयाः दत्तानि सन्ति, दत्ताः सन्ति. ऐ डोण्ट् नो एतत् विषयम् उक्तम् अत्र वा न वा अहं न जानामि, अहं किञ्चित् विलम्बेन आगतवती. परन्तु कोऽपि धातुः पश्यति चेत्, पश्यामः चेत् पत् धातुः पश्यामः चेत् तत्र बहवः विषयाः नूतनाः सन्ति. अत्र भावकर्मणोः तत्र उपसर्गार्थाः अपि एकं विषयः अस्ति, एकः विषयः अस्ति. तत्र बहवः उपसर्गाः तत्र दत्ताः सन्ति. वेरि यूस्फुल्.
उत्तमं. हिन्दीभाषया लिखितमस्ति.
लिखितमस्ति.
सर्वे पश्यन्तु, अत्र भगिनी उक्तवती खलु पत् धातोः प्रसङ्गे उपसर्गार्थाः इति लिखितमस्ति. निर्योगः पत्, परियोगः पत्, प्रनियोगः पत् इति उपसर्गाणाम् अर्थाः अत्र दीयन्ते. एकम् अभ्यासं कुर्मः इदानीं. शुभदा भगिनी, भवती
एकः विषयः तत्र प्रनियोगः पत् इति एव इति अपि अस्ति. साष्टाङ्ग नमस्कार करना इति अर्थं दत्तमस्ति. वि डिड् देट् जस्ट् नौ इन् द गीता. भगिनी वास् आस्किङ्ग् प्रणिपतति इति भवति, प्रणिपातः इति ऐ थिङ्क् साष्टाङ्ग नमस्कारः इति अर्थः भवति.
प्रणिपातः. सन्निपतति अस्ति चेत्?
सन्निपतति आगे या बाहर जाना. निष्कासयति इति अर्थे वा? निष्कासनं भवति इति अर्थे?
अहं न जानामि, किन्तु अहं सन्निपातः इति एकं पदं श्रुतवती. पठधातोः रूपमेव पातः, पठधातुतः पाठः इव घञन्तरूपं पातः. अग्रे करोतु.
उपसर्गकारणतः कदाचित् परस्मैपदिधातुः आत्मनेपदिधातुरूपम् ओ तत्तु भवत् अभवत्. यथोदाहरणम् उपसर्गसहितवाक्यानि रचयत. यथा छात्रः गृहम् आगच्छति, आयोगः गम् धातोः आगच्छति इति भवति. तत्र प्रथमं वाक्यं भक्तः देवं, प्रयोगः नम. तत्र उपसर्गे रेफः अस्ति इति कारणेन नम इत्यस्य णत्वं भवति, प्रणमति इति भवति. सो भक्तः देवं प्रणमति इति रूपं सिद्ध्यति.
उपरि सूचनां पश्यतु. यथोदाहरणं तत्र मकारः अन्ते अस्ति, तत्र सन्धिकार्यं किमर्थं न भवति?
तत्र अग्रे स्वरः अच् अच् अस्ति इति कारणेन भगिनि मकारः तिष्ठति. व्यञ्जनम् आसीत् चेत् तस्य परसवर्णः भवति अथवा अनुस्वरसन्धि भवति. यथोदाहरणं न, नस्य उपरि अनुस्वारः भवति.
उत्तमं. परवर्णः उकारः अस्ति. व्यञ्जनमस्ति चेत् व्यञ्जने परे, हलि परे तत्र मोनुस्वारः सूत्रं किं वदति, मकारस्य स्थाने अनुस्वारादेशः हलि परे एव व्यञ्जने परे एव भवति इति अनुस्वारसन्धिः वदति इति कृत्वा अत्र परवर्णः उकारः अस्ति, तदर्थम् अनुस्वारादेशः न अभवत्, मकारः यथावत् तिष्ठति। रचयत तस्मिन् प्रसङ्गे वदतु।
रच इति धातुः तस्य चुरादिगणीयधातुः इति अहं चिन्तयामि। तत्र रचयत इति लोट्लकारे मध्यमपुरुषे बहुवचने भवति रचयत इति।
उत्तम। रचयत इति पदस्य प्रसङ्गे अथवा रचयति इति यस्य प्रसङ्गे ज्ञातव्यः अंशः एकः अस्ति। पूर्वस्मिन् वर्गे गोमती भगिनी उक्तवती इति भाति चुरादिगणीयधातुः एव अयं धातुः। ईदृशधातवः चुरादिगणे 93 धातवः सन्ति, 93 धातवः एतादृशधातवः, रच् धातुः इव एतादृशधातवः सन्ति। इत्युक्ते एतादृश अदन्तधातवः, अत्र धातोः रूपं रच, चकारात् परम् अकारः अस्ति, किन्तु तस्य अकारस्य लोपः भवति विशिष्टसूत्रेण, स्मारयति वा?
रच योगः णिच् योगः इति भवति, तत्र अकारस्य लोपः भवति अतो लोपः इति सूत्रेण, अतः रच् योगः अ इति अस्ति, तत्र अ लोपः भवति अतः रच् इति तिष्ठति अन्ते। तदनन्तरं रच् योगः णिच् इति भवति, तदनन्तरं तस्य रूपं रचि इति भवति। प्रथमतया तु रच इत्यस्य अकारः लोपः भवति अतो लोपः इति सूत्रेण।
धातोः मूलरूपं रच अस्ति, रच इत्यत्र अन्ते अकारः अस्ति, एतादृश अदन्तधातवः इत्युक्ते अन्ते अकारः अस्ति, अदन्ताः चुरादिगणे बहवः सन्ति, तेषाम् एकं विशिष्टं कार्यमस्ति, भगिनी उक्तवती अतोलोपः इति सूत्रेण। णिच् इति आर्धधातुकप्रत्ययः, णिच् आर्धधातुकप्रत्यये परे अतोलोपः सूत्रेण अकारः लुप्यते, अकारस्य लोपः भवति इति कृत्वा रच् योगः इ रचि, रचि तस्मात् परं शपायाति इति कृत्वा शप् इत्यस्मात् आगतः, शप् निमित्तीकृत्य रचि इगन्तमङ्गमस्ति इति कारणतः गुणकार्यं भूत्वा रचे भवति, पुनः सन्धिकार्यं तत्सर्वं भूत्वा रचयति इति रूपं। प्रणमति इत्यत्र णत्वसूत्रं किम्?
उपदेशः तत्र भगिनी उपसर्गाद् असमासेऽपि णोपदेशस्य इति कार्यं करोति। नम् इति नम इति णोपदेशधातुः, अपि च उपसर्ग का इति उपसर्गः, उपसर्गात् निमित्तस्य कारणेन णत्वं भवति तत्र।
उत्तमम्। उपसर्गाद् असमासे णोपदेशस्य सूत्रेण णत्वं भवति। अत्र भक्तः वदतु।
भक्तः इति भज् धातुः, तस्य तान्तरूपं भज योगः क्त इति, तस्य चहोकुः इत्यनेन जकारस्य गकारः भवति प्रथमतया, तदनन्तरं गकारस्य चर्त्वं भूत्वा भक् इति भवति, भक् योगः तः भक्तः इति रूपं सिद्ध्यति।
उत्तमं। साधु भगिनी, दिव् धातोः दिवादिगणीय प्रथमसदस्यः, दिव् धातोः रूपं किं? दीव्यति। दिव् धातोः रूपमेव देवः, तत्र देवः इति पुंलिङ्गशब्दः, अत्र कर्मपदमस्ति, देवं प्रणमति इति अस्ति। रचयति अथवा कथयति, इमानि पदानि चुरादिगणीय धातोः रूपाणि। रचयति तत्र क्त्वान्तरूपं किं भवति?
रचित, रचितः,
रचित इति क्तान्तरूपं, क्त्वान्तरूपं
रचयित्वा।
उत्तमं। रचयित्वा वि उपसर्गं योजयामश्चेत् विरचयति, तत्र ल्यबन्तरूपं कथं भवति इत्युक्ते विरचय्य, विरचय्य। अत्र एकं विशिष्टं सूत्रं कार्यं करोति, ल्यपि लघुपूर्वात्, ल्यपि लघुपूर्वात् इति सूत्रेण ऐ आदेशः भूत्वा विरचय्य, प्रगणय्य, प्रकथय्य, तत्र अय्य इति अन्ते श्रूयते ल्यबन्तरूपेषु। किं वक्तुमिच्छामि, अत्र रचयति इति पदस्य प्रसङ्गे अथवा कथयति गणयति चुरादिगणीयधातूनां प्रसङ्गे उपसर्गस्य योजनेन ल्यबन्तरूपेषु ऐ आदेशः भवति, ल्यपि लघुपूर्वात् सूत्रेण, तदर्थमेव विरचय्य। द्वितीयं वाक्यं करोतु।
भगवान् युगे युगे संयोगः भू, तत्र सम्भवति
इति रूपं भवति. संयोगः भू सम्भवति.
युगे इति पदस्य लिङ्गं किं?
नपुंसकलिङ्ग वा युगम् इति?
युगम्, युगम् इति नपुंसकलिङ्गपदमस्ति. भगवान् इति पदस्य प्रसङ्गे वदतु.
भगवान् इति भगवत् इति तकारान्त पुल्लिङ्गरूपं पुल्लिङ्गशब्दः अस्ति. तस्य प्रथमा विभक्ति एकवचने भगवान् इति भवति.
उत्तमं. मतु प्रत्ययान्तशब्दः भगवत् प्रातिपदिकमस्ति. अत्र सम्भवति इति पदमस्ति. ल्यबन्तरूपं वक्तुमिच्छामश्चेत् सम्भूय इति रूपं भवति. कर्मणि लट् रूपं सम्भूयते खलु. भूयते इति कर्मणि लट् रूपं, सम्भूय इति ल्यबन्तरूपम् अस्ति. अग्रे कर्तुमिच्छति वा?
सैनिकाः शत्रून् समहरन्ति वा? समहरन्ति,
संहरन्ति,
संहर, ओ संहरन्ति, हा हा, संहरन्ति. स अनुस्वारः अस्ति, स स इत्यस्य उपरि संहरन्ति इति.
अन्येषां पदानां प्रसङ्गे वदतु.
सैनिकाः इति अत्र फायर् अलार्म् अस्ति भगिनि, क्षम्यताम्.
शोभा भगिनी भवती वदतु.
सैनिकाः इति पदस्य विषये वा भगिनि? सैनिकः, सैनिकः इति पुंलिङ्गपदम् अकारान्त. सैनिकाः तत्र बहुवचने. अपि किं वदनीयं? किमपि अन्यत्?
शत्रून् वद.
शत्रून्, शत्रून् इति द्वितीयविभक्ति बहुवचने. शत्रुः इति उकारान्त पुंलिङ्गशब्दः.
सैनिकाः इति बहुवचनमस्ति इति कारणतः संहरन्ति इति भवति. अत्र ल्यबन्तरूपं वक्तुमिच्छति वा?
हा, तत्र संहृत्य इति भवति ल्यबन्तरूपम्.
उत्तमं. संहृत्य,
संहृत्य.
आ उपसर्गः अस्ति चेत्?
आ उपसर्गः अस्ति चेत् आहृत्य एव भवति इति मन्ये.
प्रा अस्ति चेत्?
प्रा, अस्तु, ह्रस्व अकारः, प्रा प्रहृत्य.
वि अस्ति चेत्?
विहृत्य.
किन्तु अत्र संहृत्य इति लिखितमस्ति. अत्र हुरुधातोः रूपमेव. अग्रे करोतु.
माता पुत्रान् इति तत्र परियोगः पाल् इति, पाल् इति धातुः, परिपालयति इति भवति. तत्र णिजन्तरूपं भवति. माता पुत्रान् परिपालयति इति.
पाल् धातुः चुरादिगणे अस्ति इति भाति.
द्रष्टव्यं भगिनि. पाल् इति चुरादिगणे अस्ति वा?
पाल् योगः इ पालि इति नूतनधातुः. पालि सः पालय, पालयति इति रूपं. ल्यबन्तरूपं किं भवितुमर्हति?
तत्र परिपाल् इति पाल्य, पाल् योगः ल्यप् भवति चेत् पाल्य इति भवति इति मन्ये. परिपाल्य.
उत्तमं. परिपाल्य. पश्यतु, परिपाल्य इति रूपं साधयितुमिच्छामश्चेत् पालि इति नूतनधातोः रूपम् अस्ति. पालि इत्यत्र अन्ते इकारः अस्ति. सः इकारः अणिच् इत्यस्मात् आगतं तत् रूपं. किन्तु ल्यप् योजनेन तत्र स्थितस्य इकारस्य लोपः भवितव्यमेव. लोपः भवति चेदेव तत्र परिपाल्य, सम्पाल्य इत्यादीनि रूपाणि भवितुमर्हन्ति. तदर्थमेव तत्र नेर नेटि इति सूत्रेण नेः लोपः, इत्युक्ते णिच् प्रत्ययात् यः इकारः आगतः तस्य इकारस्य लोपः भवति इति कृत्वा परिपाल्य इति रूपं. नेर नेटि
इति वा भगिनि? नेरे नेः अनिट् इति.
णेः अनिट्, षष्ठाध्यायस्य चतुर्थपादस्य एकपञ्चाशत्तमं सूत्रं. 6451.
6451. अस्तु भगिनि.
माता इति ऋकारान्तप्रातिपदिकं खलु?
मातृ इति ऋकारान्तप्रातिपदिकं. माता इति प्रथमविभक्तौ भवति.
अग्रे करोतु.
छात्राः गुरून्, तत्र छात्रः इति अकारान्त पुंलिङ्गपदं, छात्र इति प्रातिपदिकं. गुरुः इति उकारान्त पुंलिङ्गपदं. गुरून् इति द्वितीयविभक्तौ बहुवचने. छात्राः प्रथमाविभक्ति बहुवचने. परियोगः प्रच् इति धातुः. परि अस्तु तत्र सम्प्रसारणं भवति इति मन्ये भगिनी, परिपृच्छति इति भवति, छात्राः गुरून् परिपृच्छति इति भवति,
सम्प्रसारणकार्यं भवति, गृहिज्या वै व्यधि वष्टि विचिति पृच्छति भृज्यतीनां निति इति सूत्रेण निति परे सम्प्रसारणकार्यं भूत्वा पृच् इति भवति. मूलतः प्रच् इति रूपमस्ति, प्रच् धातुः तुदादिगणीयः, तत्र सम्प्रसारणकार्यं भूत्वा पृच् भवति. किन्तु ल्यबन्तरूपं वक्तुमिच्छामश्चेत् परिपृच्य, आपृच्य, सम्पृच्य इत्यादीनि रूपाणि, उपसर्गभेदेन भिन्नरूपाणि. पृच्छ्य इति लेखितुमिच्छामश्चेत् चकारः छकारः च, इत्युक्ते वर्णद्वयं लेखनीयं. परिपृच्छ्य इति कथनेन अल्पप्राणचकारः महाप्राणचकारः अपि लेखनीयं. साधु भगिनी, अग्रे गीताञ्जलिभगिनी भवती करोतु.
कविः काव्यं, तत्र वि योगः लिख्, लिख् धातु अपि तुदादिगणे अस्ति, विलिखति. कविः काव्यं विलिखति, कविः पुंलिङ्गपदमस्ति एकवचन, काव्यं तु कर्मपदमस्ति. कविः काव्यं विलिखति, ल्यवन्त अस्ति चेत् विलिख्य.
उत्तमम्. वियोगः लिखियोगः ल्यपितेन विलिख्य इति. अग्रे करोतु.
दुर्योधनः द्रौपदीं, उपयोगः हस् धातु, उपहसति, उपहसति. दुर्योधन एकवचन अस्ति, पुंलिङ्गपदं. द्रौपदीं कर्मपदं. हस् धातु,
हस् धातोः प्रसङ्गे अकर्मकः इति लिखितमस्ति.
ओ अस्ति वा. हस् धातु अकर्मकः अस्ति चेत् कथं द्रौपदीं दत्तं भगिनि?
उप इति उपसर्गस्य योजनेन सकर्मकत्वं प्राप्नोति इति मन्ये.
ओ अस्ति वा.
बालिका हसति,
हसति,
तत्र कर्मपदस्य आवश्यकता नास्ति खलु, अतः हस् धातुः अकर्मकः एव, किन्तु उप इति उपसर्गस्य योजनेन सकर्मकत्वं प्राप्नोति इति मन्ये. अत्र ल्यबन्तं किं भवितुमर्हति?
ल्यबन्तम् उपहस्य, उपहस्य,
उपहस्य,
उपहस्य.
प्र अस्ति चेत् प्रहस्य,
हस्य.
परि अस्ति चेत्
परिहस्य.
अप अस्ति चेत्
अपहस्य.
एतानि ल्यबन्तानि.
अपि उपहसति, अपि अपहसति, भेदः कः भगिनि? अर्थ, अर्थभेदः अस्ति वा तत्र? अपहसति अपि उपहसति, उप इति समीपार्थे अस्ति अत्र वा? उपहसति इत्युक्ते दुर्योधनः द्रौपदीम् उपहसति समीपार्थे अस्ति वा यत्र?
दर्शिना भगिनी वदतु.
नैव, तत्र तु हसति, हसति इति अर्थः अस्ति. मेकिङ्ग् फन् आफ़् उपहास.
तदेव अप अपि तदेव कार्यं करोति न भगिनि? अपहसति अपि समानार्थकः भवति न? रिडिक्यूल्.
It should be, but I know what is upahasati. It is definitely makes fun of ridiculing.
Prahastaha iti Ravanasya banduhu asit. Prahastaha.
Ityukte mahoday.
Pra iti upasargaha. Hastaha. Hasati. Hasati iti manye.
Artha poshana
mahodaya. Padam pashyantu. Mahodayani kimuktamasti. प्रहस्तः, प्रहस्तः इति पदम् उक्तवान्. तत्र हस् धातुतः क्ताप्रत्ययस्य योजनेन हस्त न भवति, तत्र हसित, हसितं, क्तान्तरूपं हसितं भवति, किन्तु तत् पदं भिन्नं पदम् इति भाति महोदय. हस् धातोः रूपं नास्ति. हस् धातुः अस्ति चेत् पश्यन्तु एकवारं, हस् धातुः सेट् धातुः इति लिखितमस्ति. सेट् अस्ति चेत् इडागमः भवति, कथाप्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्यये परे इडागमः भवति चेत् धातुः सेट् अस्ति चेत् हसित इति रूपं भवति, मध्ये इडागमः भवति. किन्तु यत् पदं भवता उक्तं तत्र भिन्नचिन्तनम् अपेक्षितम्.
अस्तु,
प्रहसन् प्रहसन् तु नेगेटिव्लि नास्ति. तत्र द्वितीयगीतायाः द्वितीय अध्याये तत्र अस्ति प्रहसन्निव भारत इति. समुवाचिकेश प्रहसन्निव भारत, दट् इस् नाट् लाफिङ्ग् नेगेटिव्लि बट् जस्ट् स्मैलिङ्ग् लैक् देट्.
आहत्य प्रहसनं, प्रहसनं तत्र भिन्न अर्थः अस्ति, किन्तु अपहसनं परिहसनं भिन्न अर्थः अस्ति इति भाति. वदतु भगिनि.
अग्रिमं भगिनि. अस्तु, कर्णः धनुर्विद्यां विस्मरति. वि योगः स्मृ धातु, स्मृ भ्वादिगणे स्मरति, स्मरता, स्मरन्ति. विस्मरति ल्यप् अस्ति चेत् विस्मृत्य
भवति.
धनुर्विद्यां षष्ठी तत्पुरुष अस्ति भगिनि.
तत्र धनुषः विद्या अथवा धनुषां विद्या.
धनुः धनु हा धनुषः विद्या. हा हा, षष्ठी तत्पुरुष अत्र तु कर्मपदं.
कर्मपदं धनुषः विद्या भवितुमर्हति. विस्मृत्य तत्र अर्थभेदः अस्ति. संस्मृत्य, संस्मृत्य इति कथनेन
स्मृत्य इत्युक्ते सम्यक् स्मरति वा.
कस्यचित् संस्मरणं करोमि, संस्मरणं सम्यक् स्मरामि, संस्मरणं. किन्तु विस्मरणं भिन्नं खलु.
आं भगिनि, वि अत्र तु विना विशेष नास्ति, विना अस्ति.
बहु किमपि वयं चिन्तनं कृतवन्तः, किन्तु अन्यानि वाक्यानि अपि सन्ति. इदानीम् अत्र स्थगयामः. अग्रिमे सप्ताहे अन्येषां वाक्यानां प्रसङ्गे चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.